त्रयोदशोऽध्यायः सेवित्रीवने मद्धुफलानि चप्नोति गुरुरात्मनात्मानं जितवान् पाचकः कुम्भे बहुभ्यः फलेभ्यो रसं सुनोति वृक्षालब्धानि फलान्याहारं पचत वनाद्गतस्य बुद्धस्य गुरोर्वाचो बाला बुद्धवन्तः राज्ञा जिताय द्विभिः शीघ्रा नदी तीर्णा वने राज्ञश्चोरितम् अश्वं सेवक आप्तवान् फलेषु लब्धेषु भ्राता स्वसा च ग्रामं वनाद्गतौ पिता वारिणे दर्शनीयं कुम्भम् अकरोत्।